इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचको नरेन्द्रदत्त सेमवालः। आदौ मुख्य वार्ताः। संसदः उभय सदनयोः संयुक्त सम्मेलनाय राष्ट्रपतिना द्रौपदी मुर्मू वर्यया प्रदत्तम् अभिभाषणम् अधिकृत्य लोकसभया धन्यवाद ज्ञापन प्रस्तावे चर्चा कृता। अमेरिका भारत रणनीतिक सहयोग मंचेन केन्द्रीय आय व्ययकम् इत्येतत् प्रशंसितम्। विज्ञान विकास तंत्रज्ञान मंत्री डॉ जितेन्द्र सिंह वर्यः अवदत् यत् केन्द्रीय आय व्ययकेन मध्यम वर्गीयेभ्यः लाभः प्रदास्यते। सर्वोच्च न्यायालयेन पेन्नैयार नद्याः जल विभाजन विषये तमिलनाडु कर्णाटकयोः मध्ये दीर्घकालं यावत् विलम्बितस्य विवादस्य न्याय निर्णयं कर्तुं न्यायाधिकरणं निर्मातुं केन्द्र सर्वकाराय आदेशः प्रदत्तः। ईरानेन इस्लामिक रिपब्लिक इत्यत्र प्रतिष्ठितस्य यूरोपियन यूनियन इत्यस्य राजदूताः समाहूताः येन पैरामिलिट्री रिवोल्यूशनरी गार्ड इत्येतत् आतंकवादी संघटनम् उद्घोषयितुं कृतस्य निर्णयस्य विरोधः क्रियात्। अपि च एशियन राइफल एंड पिस्टल शूटिंग चैंपियनशिप इत्येषा क्रीडा प्रतियोगिता नवदिल्ल्यां समारब्धा। अथ वार्ताः विस्तरेण। संसदः उभय सदनयोः संयुक्त सम्मेलनाय राष्ट्रपतिना द्रौपदी मुर्मू वर्यया प्रदत्तम् अभिभाषणम् अधिकृत्य लोकसभया धन्यवाद ज्ञापन प्रस्तावे चर्चा कृता। चर्चायै आहत्य अष्टादश होराः विनियोजिताः आसन्। प्रस्तावम् उपस्थापयन् भाजपादलस्य मन्त्री सर्वानन्द सोनोवालः अवदत् यत् मुर्मू वर्यायाः अभिभाषणं देशस्य भविष्यं प्रति दृष्टिकोणं प्रतिपादयति। सः अकथयत् यत् अनेन अभिभाषणेन सामाजिक सुरक्षायै निरन्तरवृद्ध्यै विकसित भारताय च सर्वकारस्य प्रतिबद्धता प्रकाश्यते। अमेरिका भारत रणनीतिक सहयोग मञ्चेन केन्द्रीय आय व्ययकम् इत्येतत् प्रशंसितम्। भारतस्य सुदृढ प्रतिस्पर्धात्मकतायाः निवेश वर्धनस्य व्यापार सुगमतायाः च प्रगतिशील मार्गचित्रम् एतत् वर्णितम्। वित्तमंत्री निर्मला सीतारमणवर्या अद्य संसदि आगामि वित्तवर्षस्य केन्द्रीय आय व्ययकम् उपस्थापितवती येन विनिर्माणस्य अवसंरचनायाः आजीविकायाः च कृते प्रबलं प्रोत्साहनं प्रदत्तम्। अपि च सरलतया करस्य सीमा शुल्कस्य च व्यवस्थायाः प्रस्तावः कृतः। स्टेट बैंक ऑफ इंडिया इत्यस्य अध्यक्षः चल्ला श्री निवासुल्लु सेट्टी इत्येषः कथयत् यत् केन्द्रीय आय व्ययकम् वैश्विक प्रतिस्पर्धात्मकतया सह भारतं नवान्वेषणस्य उन्नत विनिर्माणस्य च वैश्विक केन्द्र रूपेण निर्मातुं महत्वपूर्णं सोपानमस्ति। दिल्ल्याः मुख्यमन्त्रीवर्या रेखागुप्ता इत्येषा अकथयत् यत् केन्द्रीय आय व्ययकम् युवभ्य महिलाभ्य मध्यमवर्गाय अवसरान् प्रददाति तथा च देशस्य अर्थव्यवस्थां सुदृढीकर्तुं स्पष्टं मार्गचित्रं प्रस्तौति। केन्द्रीय आय व्ययकम् भविष्यवादी इति सम्बोधयन् विज्ञान विकास तंत्रज्ञान मंत्री डॉ जितेन्द्र सिंह वर्यः अवदत् यत् एतत् आय व्ययकम् शताब्दस्य अग्रिम चतुर्थांशस्य मार्गचित्रं निर्दिशति। अद्य नवदिल्ल्यां पत्रकार सम्मेलनं सम्बोधयन् डॉ सिंह वर्यः अकथयत् यत् बायो फार्मा शक्तिः इत्यर्थं दश सहस्रकोटि रूप्यकाणां प्रबन्धनेन जैव निर्माण क्षेत्रे भारतस्य स्थानं सुदृढं भविष्यति। सर्वोच्च न्यायालयेन पेन्नैयार नद्याः जल विभाजन विषये तमिलनाडु कर्णाटकयोः मध्ये दीर्घकालं यावत् विलम्बितस्य विवादस्य न्याय निर्णयं कर्तुं न्यायाधिकरणं निर्मातुं केन्द्र सर्वकाराय आदेशः प्रदत्तः। सर्वोच्च न्यायालयेन केन्द्र सर्वकाराय एकमासाभ्यन्तरं अधिसूचनां प्रकाशितुं जल विवाद न्यायाधिकरणस्य निर्माणं कर्तुं च आदेशः प्रदत्तः। ईरानेन इस्लामिक रिपब्लिक इत्यत्र प्रतिष्ठितस्य यूरोपियन यूनियन इत्यस्य राजदूताः समाहूताः येन पैरामिलिट्री रिवोल्यूशनरी गार्ड इत्येतत् आतंकवादी संघटनम् उद्घोषयितुं कृतस्य निर्णयस्य विरोधः क्रियात्। ईरानस्य विदेश मन्त्रालयस्य प्रवक्ता इस्माइल बगाई इत्यनेन पत्रकाराः समबोधिताः यत् आह्वान प्रक्रिया यः समारब्धा या अद्यापि प्रचलिष्यति। संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर इति चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। राष्ट्रपतिः द्रौपदी मुर्मुवर्या अद्य दिवसात् आरभ्य ओडिशा छत्तीसगढ़ इत्येतयोः राज्ययोः षड् दिवसानां यात्रायाम् अस्ति। अद्य सायंकालं सा पूर्वनिर्धारितस्य यात्रा कार्यक्रमस्य अन्तर्गतं भुवनेश्वरं प्राप्स्यति। आगामिषु केषुचित् दिनेषु राष्ट्रपतिवर्या ओडिशा राज्ये धार्मिक शैक्षणिक विकासात्मकानि विविधानि कार्याणि सम्पादयिष्यति। संसदीय कार्यमंत्री किरेन रिजिजुः उक्तवान् यत् लोकसभायां राष्ट्रपतेः अभिभाषणस्य धन्यवाद प्रस्तावस्य चर्चायै संसदा उभय सदनयोः संयुक्त सम्मेलनस्य कृते आहत्य 18 होराः विनियोजिताः सन्ति। संसदः बहिः वार्ताकारैः सह वार्तालापं कुर्वन् श्री रिजिजुः अवदत् यत् चर्चायाः विस्तारः दिनत्रयं यावत् भविष्यति। प्रधानमन्त्रिणा नरेन्द्रमोदिना बुधवासरे लोकसभायां चर्चायाः उत्तरं प्रदास्यते।
अभी अभी राहुल गांधी जी ने कहा एस्केप, क्या कोई जेल से भागने वाला ऐसा शब्द आप इस सदन में कैसे प्रयोग कर सकते? आपने बहुत गलत शब्द इस्तेमाल किया। आप पॉइंट में बोलिए, हम लोग सुनेंगे। अभी भी समय है, हम लोग सुनने के लिए बैठे हैं।
भाजपा दलस्य सांसदाः जगदम्बिका पालः इत्येषः अद्य लोकसभायां कोलाहलं कर्तुं लोकसभाध्यक्षस्य ओम बिरला वर्यस्य निर्णयं नानुपालयितुं च विपक्षनेतारं राहुल गांधिनं विरुध्य कार्याचरणं विधातुं अध्यर्थितवान्। आकाशवाणी न्यूज इत्यनेन सह वार्तालापं कुर्वन् श्रीपालः अवदत् यत् गांधीवर्यः पूर्वसेनाप्रमुखस्य एम नरवणे इत्यस्य पुस्तकविषये उल्लेखं करोति यत् अद्यापि न प्रकाशितम्। श्रीपालः इत्यपि अवदत् यत् रक्षामन्त्री राजनाथसिंहः गृहमन्त्री अमितशाहः च अपि आक्षेपं कृतवन्तौ यत् राहुलमहोदयः अप्रकाशितस्य पुस्तकस्य उल्लेखं न कुर्युः।
जिस तरह से लीवर ऑफ ऑप्शन राहुल गांधी ने आचरण किया है, स्पीकर की बार बार रूलिंग देने के बावजूद भी वो बिना किसी तथ्यों के उस सदन का दुरुपयोग करके आरोप लगाना चाहते थे। रक्षा मंत्री जी कह रहे थे कि जो चीज नहीं प्रकाशित है, गृह मंत्री जी कह रहे थे, इसके बावजूद भी उन्होंने सदन को व्यवधान करके स्थगित करने के लिए मजबूर करना पड़ा। ये केवल निंदनीय उनका कृत नहीं बल्कि उनके खिलाफ कठोर कार्रवाई हुई।
केंद्रीय युवा कार्य क्रीडा मंत्री डॉक्टर मनसुख मांडविया विकसित भारत युवा नेतृणाम संवादस्य सफलतायाः अनन्तरम् अद्य माई भारत बजट क्वेस्ट 20-26 इत्यस्य आरम्भं कृतवान्। श्वः आरभ्यमानस्य राष्ट्रव्यापी युवकेन्द्रित उपक्रमस्य उद्देश्यं देशस्य युवजनैः केन्द्रीय आय व्ययिकस्य अवबोधनं कारयितुम् आय व्ययिक उपबन्धान् सुलभतरं सम्बद्धं नागरिक केन्द्रितं च कर्तुं निर्धारितम् अस्ति। एषः उपक्रमः संरचित सहभागितापूर्ण संरचनायाः माध्यमेन सम्पूर्णे देशे महाविद्यालयानां संस्थानां प्रशिक्षणकेन्द्राणां च युवान् योजयित्वा नागरिकाणां दैनन्दिनजीवनेन सह आयव्ययिकं योजयितुं प्रयतते। नवदिल्ल्याम् अस्य मासस्य 16 दिनांकात् आरभमाणेन भारत AI शिखर सम्मेलनेन 35,000+ अधिकानि पञ्जीकरणपत्राणि प्राप्तानि। इलेक्ट्रॉनिक्स एंड IT इति मंत्रालयेन सूचितं यत् पञ्चदिवसीये कार्यक्रमे 15-20 यावत् सर्वकारीयाः प्रमुखाः विविधदेशानां मन्त्रिणः प्रमुख वैश्विकानां भारतीयानां च उद्योग संस्थानां 40+ अधिकाः CEO इत्येते संस्थाप्रमुखाः 100+ देशाः च भागं ग्रहीष्यन्ति। विदेशमन्त्री एस जयशंकरः अद्य अमेरिका देशस्य 3-दिवसीयायां यात्रायाम् अस्ति। सहराज्य सचिवेन मार्को रूबियो इत्यनेन समाहूते क्रिटिकल मिनरल्स मिनिस्टरियल इति उपवेशने भागं ग्रहीष्यति। लोकसभायाः कार्याचरणं राष्ट्रपतेः अभिभाषणस्य धन्यवाद प्रस्तावस्य समये पूर्वसेनाप्रमुखस्य एम नरवणे इत्यस्य अप्रकाशितस्य पुस्तकस्य विषये विपक्षिदलस्य नेतृणां राहुल गांधिना प्रदत्तं वक्तव्यं विरुध्य संसदि प्रवर्तमानेन कोलाहलेन त्रिवारं बाधितं जातम्। अपराह्णे 4 द्वितीय स्थगनस्य अनन्तरं यदा पुनरारभत तदा गांधीमहोदयः पुनः अप्रकाशितं पुस्तकम् अधिकृत्य टिप्पणीम् अकरोत्, यां विरुध्य कोषपीठस्य सदस्याः आक्षेपं कृतवन्तः। पीठासीन अधिकारी श्रीगांधीवर्यम् अध्यक्ष निर्णयस्य स्मरणं कारयित्वा धन्यवाद प्रस्तावस्य विषये प्रतिबद्धः भवितुम् आग्रहम् अकरोत्। एशियन राइफल एंड पिस्टल शूटिंग चैंपियनशिप इत्येषा क्रीडा प्रतियोगिता नवदिल्ल्यां समारब्धा। इति वार्ताः।